येनाक्षर समाम नायम अधिगम्यो हेश्वरा तत्सत्यम व्याकरणम प्रोक्तम तस्मै पाणिनिये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च ज्ञानतोष्णिं मुनित्रयम्। मुनित्रयम् नमस्कृत्य तदुक्तीश्वरिभाव्ये च वैयाकरणसिद्धान्तकौमुदीहिं विरच्यते। सिद्धान्तकौमुद्याः कारकप्रकरणे स्मः, तत्रापि द्वितीयाविभक्तिप्रकरणम्। द्वितीयाविभक्तिप्रकरणे आदौ कारकद्वितीया विधीयते, यत्र कर्मणि द्वितीया इत्यनेन कर्मकारकस्य द्वितीयाविभक्तिः विधीयते। एवं तर्हि किन्नाम कर्म इति प्रश्नः उदेति, तदर्थं कर्मसंज्ञाविधायकानि सूत्राणि विधीयन्ते। कर्मसंज्ञाविधायकेषु सूत्रेषु प्रथमं सूत्रमासीत् कर्तुरिच्छिततमं कर्म। कर्तुः क्रियया आक्तम् इष्टतमं कारकं कर्मसंज्ञं स्यात् इति सूत्रार्थः। तथा इच्छन्त अनिच्छितम्, इच्छिततमवत् क्रियया युक्तम् अनिच्छितमपि कारकम्। यद्यपि सः तस्य उद्देश्यं न स्यात्, सः न इच्छेत् अथवा तस्य उपेक्षार्हं भवेत्, तथापि यथा इच्छिततमस्य क्रियया सह सम्बन्धः भवति, तथैव यदि कारकक्रियासम्बन्धः विद्यते तर्हि तस्यापि कर्मसंज्ञा भवति। तृतीयं सूत्रमासीत् अकथितं च, अपादानादिकारकविशेषैः अविवक्षितं कारकं कर्मसंज्ञं स्यात्। तत्रापि दुहियात् प्रसिदण्ड् इत्यादिना वाक्यकेन तेषां षोडशधातूनां प्रयोगे अन्यैः कारकैः अविवक्षितं यत् कारकं तस्य कर्मसंज्ञा भवति, गाम्पयः दुग्धि इत्यादिषु विषयीतम्। इदानीं चतुर्थं सूत्रम् अस्ति, प्रतिबुद्धिप्रत्यवसानात् शब्दकर्मा कर्मकाणाम् अणिकर्ता सणौ। गति बुद्धि प्रत्यवसानार्थ शब्द कर्म अकर्मकाणाम् एकेषां धातूनां विषये अणि कर्ता, अणिगन्तप्रयोगे यः कर्ता सः णौ अर्थात् निगन्तप्रयोगे कर्मसंज्ञकः भवति इति सूत्रार्थः। एतत् सूत्रं ज्ञातुम् आदौ निगन्तप्रयोगस्य ज्ञानम् आवश्यकं भवति। निगन्तप्रयोगः नाम कः, कथं तत्र पदानां प्रयोगः इति आदौ ज्ञातव्यम्। निगन्तः नाम प्रेरणार्थे निच् प्रत्ययः विधीयते सर्वेभ्यः धातुभ्यः, पठति पाठयति लिखति लेखयति भूते भोजयति इत्यादिषु सर्वत्र भवति। तत्र सर्वत्र कर्तृद्वयं पश्यामः, प्रयोज्यकर्ता इति एकः, प्रयोजककर्ता इत्यपरः। यः वस्तुतः कार्यं करोति सः प्रयोज्यकर्ता, यथा यदि अहं पठामि तर्हि अहं प्रयोजककर्ता। कश्चित् मां पठितुं प्रेरयति सः पाठयति, सः प्रयोजककर्ता इति उच्यते। गुरुः शिष्यं पाठयति इत्यस्ति चेत् वस्तुतः शिष्येनैव पठनीयं, गुरुः पठनकार्यं न करोति, केवलं शिष्यं पठितुं प्रेरयति किल। अतः शिष्यः प्रयोज्यकर्ता, गुरुश्च प्रयोजककर्ता इति उच्यते। I hope everybody is able to see the slide. I mean, there's only one white board, so there should not be a confusion. If you are not able to see it, you may use the PDF. I have numbered my slide according to suggestion given by somebody. So we are currently on slide 3. सामान्यतया निगन्तप्रयोगे किं भवति, इदानीं कर्तृद्वयमस्ति इति ज्ञातम्, तत्र उभयोः कर्तोः कर्तृकरणयोः तृतीया इति तृतीया विभक्तिः भवति। कर्तृकारकस्य विभक्तिः तृतीया विभक्तिः, एतत्तु ज्ञातम्। अग्रे सूत्रमग्रे वक्ष्यते, तथापि कर्तृकारकस्य सर्वदा तृतीया विभक्तिः भवति। अनधिहितत्वे सति यदा कर्ता अन्येन अनधिहितः, यथा रामेण रावणः हन्यते। यदि तो किना कर्तुः अभिधानम् स्यात् अर्थात् कर्तरि प्रयोगे रामः रावणम् सन्ति कर्ता किना अभिहितः इत्यतः कर्तुः प्रथमा विभक्तिः भवति इति सामान्य ज्ञानम् इदानीं निगन्त प्रयोगे कर्तृद्वयम् अस्ति किल किं भवति इति चेत् उभयोः कर्तोः तृतीया विभक्तिः भवति यदा अनभिहितत्वम् अस्ति अर्थात् कर्मणि प्रयोगे उभयोः कर्तोः तृतीया विभक्तिः भवति कर्तरि प्रयोगे किं भवति एतः कर्ता प्रयोजनकर्ता अभिहितः इत्यतः तस्य प्रथमा भवति उदाहरणं पश्यामः शुद्धधातुः अस्ति अर्थात् अनुगन्तः देवदत्तः तण्डुलान् पतति अयं कर्तरि प्रयोगः कर्ता सः देवदत्तः कर्ता कर्तुः वस्तुतः तृतीया विभक्तिः भवेत् किन्तु किना अभिहितत्वात् पतति इति सिप्रत्ययेन कर्तुः अभिहितत्वात् कर्तुः प्रथमा विभक्तिः श्रूयते कर्तरि प्रयोगे सर्वत्र एवमेव स्थितिः कर्तरि प्रयोगे कर्तुः प्रथमा विभक्तिः किमर्थं तस्य किना अभिहितत्वात् तृतीया विभक्तिः न भवति तदा तु कर्मणि प्रयोगः तदा किना कर्म अभिहितम् न तु कर्ता अतः कर्तुः तृतीया विभक्तिः भवति देवदत्तेन तण्डुलाः पच्यन्ते इति शुद्धधातोः प्रयोगः दिस् इस् द एक्चुअल् एक्साम्पल् आफ् कर्तरि तृतीया देवदत्तेन तण्डुलाः पच्यन्ते दिस् इस् द ओरिजिनल् थिङ्ग् बट् वेन् द कर्ता हेस् बीन् टोल्ड् बै द थिङ्ग् प्रत्यय यु विल् हाव् प्रथम प्रयोग बोत् आफ् दीस् दे आर् सिमिलर् कर्तरि प्रयोगे कर्तुः प्रथमा विभक्तिः भवति कर्मणि प्रयोगे तु तृतीया विभक्तिः भवति इति दृष्टम् निगन्तप्रयोग इदानीं कथम् इति पश्यामश्चेत् अग्रिम स्लैड् मध्ये निगन्तस्य प्रयोगे देवदत्तः तण्डुलान् पचति इति सिद्धधातुः माता देवदत्तेन तण्डुलान् पाचयति देवदत्तः पचति सः प्रयोज्यकर्ता माता पाचयति शिमेक्सिम् कुक् माता अत्र प्रयोजककर्त्री कर्तृद्वयम् अस्ति कर्तरि प्रयोगे किं भवति द कर्त्री दट् इस् द एक्चुअल् कर्त्री हियर् इस् द प्रयोजककर्त्री माता पाचयति द डैरेक्ट् असोसियेशन् विद् द निगन्त दिस् इस् फार् माता अतः मातुः कर्तृत्वमस्ति प्रयोजककर्तृत्वं तस्याः अभिहितत्वात् सिन्स् शी हेज़् आलरेडि बीन् टोल्ड् बै द किङ्ग् प्रयोजककर्तुः किना अभिहितत्वात् प्रथमा विभक्तिः भवति माता देवदत्तेन इदानीम् अत्र प्रयोज्यकर्ता न अभिहितः द किङ्ग् विच् इस् प्रेसेण्ट् केन् टेल् वन् कर्ता विच् इस् द प्रयोजककर्ता इट् इस् इण्डिकेटिङ्ग् द प्रयोजककर्ता अण्ड् द प्रयोज्यकर्ता हेज़् नाट् बीन् टोल्ड् अतः कर्तरि प्रयोगेऽपि तस्य तृतीया विभक्तिः भवति माता देवदत्तेन तण्डुलान् तण्डुलाः कर्म कर्मणि द्वितीया इति द्वितीया विभक्तिः पाचयति माता देवदत्तेन तण्डुलान् पाचयति दिस् इस् द स्टाण्डर्ड् कन्स्ट्रक्षन् फार् ए निगन्तप्रयोग इन् कर्तरि प्रयोग कर्मणि प्रयोगे किं भवति मात्रा देवदत्तेन तण्डुलाः पाच्यन्ते कर्मणि प्रयोगे किना कर्ता नाभिहितः नीदर् आफ् द कर्तर्स् हेव् बीन् टोल्ड् बै द किङ्ग् therefore both the kartrupadas is tritiya vibhakti ubhayoh kartroh tritiya vibhakti bhavati matra devadattena karma abhihitam tin pratyena karmani prayoge karma abhihiyate atah karma padat prathama vibhakti bhavati tandulaha pachyante matra devadattena tandulaha pachyante iti karmani prayoge ubhayoh kartroh tritiya vibhakti bhavati माता देवदत्तेन तण्डुलान् पाचयति इति कर्तरि प्रयोगे प्रयोजककर्तुः प्रथमा विभक्तिः प्रयोज्यकर्तुः तृतीया विभक्तिः इति स्थितिः अत एव निगन्तप्रयोगस्य स्वरूपम् यदि पश्यामः कर्तरि प्रयोगे प्रयोजककर्ता प्रथमा विभक्तिः वि वेरि क्लियर् अबौट् वाट् इस् प्रयोजक अण्ड् प्रयोज्य प्रयोजककर्ता इस् द प्रेरक ही हू इस् मेकिङ्ग् the other do the action prayojyakarta yaha vastutah karyam karoti mata devadattah prayojyakarta atra matah matuhu prathama vibhaktihi bhavati prayojyakarta devadattah tasya tritiya vibhaktihi bhavati karmanah dvitiya vibhaktihi bhavati yatha swami athava mata kyopi bhavatu pachakena tandulan pachayati स्वामी पाचकेन तण्डुलान् पाचयति அசமா மாதா தேவதத்தேன சந்தனான் பாத்தேதி சமானம். திரையோகதத்துகு பிரதமா விபக்தி, பிரயோஜகத்துகு திருத்தியா விபக்தி, கர்மணஹ திதியா விபக்தி. ஏவமேவ கர்மணி பிரயோகே கதம் பவதி நிகந்த பிரயோகஸ்ய ஸ்வரூபம் இதி பஷ்யாமஶ்சேத், பிரயோஜக கர்த்துஹு திருத்தியா விபக்தி அனபிஹிதத்வா திருத்தியா, பிரயோஜ்ய கர்த்துஹு அபி திருத்தியா விபக்தி, உபயோக கர்த்தோஹு திருத்தியா விபக்தி பவதி, கர்மகாரகஸ்ய து அபிஹிதத்வா பிரதமா. சுவாமினா பாதகேன தண்டுலாஹ பாத்யந்தே, மாத்ரா தேவதத்தேன தண்டுலாஹ பாத்யந்தே. உபயத்ர கிம் பஷ்யாமஹ, அத்ர ஏகஃ பிரஷ்னஃ அஸ்தி, உத்தமஃ பிரஷ்னஃ, கர்மணி பிரயோகே கஃ பிரயோஜக கர்த்தா கஃ பிரயோஜ்ய கர்த்தா இதி கதம் ஞாயதே இதி பிரஷ்னஃ. யதோஹி உபயோஹ ஸ்ருத்யா விபக்திஹி வித்யதே, மாத்ரா தேவதத்தேன இத்யஸ்தி, கஹ வஸ்த்ரதஃ தத்ஸ்யதி கஹ பாசயதி இதி சம்சயஃ கர்மணி பிரயோகே உதயத்யேவ. தத்து ஒன் கான்டெக்ஸ்ட் ஞாதவ்யம் பவதி. கர்மணி பிரயோகஹ யதி உபயுஜ்யதே ததா கேவலம் வாக்யஸ்ய பட்டனேன ஞாதும் ந சக்யதே. ஸ்வாமினா பாசகேன இத்யபி பவேத், பாசகேன ஸ்வாமினா, பாசகஹ யதி பாசயதி. அதேவ இதானீம் தி ஜ்ஞாயதே ஸ்வாமி பாசகஹ இதி யதா பவதி சஹ ப்ரேரகஹ சஹ வஸ்த்ரதஃ காரியம் கரோதி இதி ஜ்ஞாயதே. Based on context. But if it is just two names, kaha vastutaha pachati, kaha prayojya karta, kaha prayojya karta, iti vakyasya pathanena na jnayate. You will not be able to say, because both of them have tritiya vibhakti. Tadatu, on context, yatavyam bhavati. Ase, ekam tu asti, uhayatrati, arthatu, kartari prayogo va bhavatu, karmani prayogo va bhavatu, பிரயோஜ்ய கர்த்துஹு கர்த்ருத்வம் தத்ரயுக்தா த்ருதியா விபக்திஹி பவதி. பிரயோஜ்ய கர்த்தா the one who is actually doing the action, தேவதத்தா, தஸ்ய த்ருதியா விபக்திஹி அஸ்தி. மாதா தேவதத்தேன தண்டுலான் பாசயதி, மாத்ரா தேவதத்தேன தண்டுலாஹ பாச்யந்தே. உபயத்ர பிரயோஜ்ய கர்த்துஹு த்ருதியா விபக்திஹி ஸ்ருயதே, யதஹ தஸ்ய கர்த்ருத்வம் அஸ்தி. கில கிம் ரதிபுத்தி சூத்ரேண கிம் க்ரியதே இத்யுக்தே, கேசாந்தர தாதுனாம் யோகே, யதா கேசாந்தர தாதுனாம் பிரயோகம் பவதி ததா அஸ்ய பிரயோஜ்ய கர்த்துஹு. பிரயோஜ்ய கர்த்தா இத்யுக்தே அணி கர்த்தா, அணி அணிதந்த பிரயோகே யஹ கர்த்தா ஸா தேவதத்தஹ பததி இத்யத்ர யஹ கர்த்தா பிரயோஜ்ய கர்த்தா, தஸ்ய நிதந்த பிரயோகே கர்மத்வம் விதீயதே. ஸா இன் ஜெனரல் He is the karta, he remains the karta even in nijanta prayoga. Nijanta prayoga epi tasya kartrutvam bhavati tasya yata tritiya vibhakti ki bhavati iti samanya niyamaha. Kintu yada etesham gasyadinam dhatunam prayoga asti tada ani karta prayojya karta nau karma bhavati tasya karma samya bhavati. Kartrutvam na bhavati kintu karmatvam bhavati. Karmatvasya kim prayojanam தத்ரயுக்தா த்விதீயா விபக்திஹி பவதி. இன்ஸ்டெட் ஆஃப் தி த்ருதீயா யூ ஹியர் த த்விதீயா விபக்தி இன் அசோசியேஷன் வித் பிரயோஜ்ய கர்த்தா. தட் இஸ் த பர்பஸ் ஆஃப் திஸ் சூத்ர. ரதிபுத்தி சூத்ரேண தாமதேவ க்ரியதே, யத்ர பிரயோஜ்ய கர்த்துஹு சாமான்யதஹ த்ருதீயா விபக்திஹி பவதி, கிந்து ஏஷாம் தாதூனாம் பிரயோகே தஸ்ய து த்விதீயா விபக்திஹி பவதி. கர்மத்வம் பவதி தத்ரயுக்தா த்விதீயா விபக்திஹி. ஏதத் ஸ்மர்த்தவ்யம். காரக விதாயகம் சூத்திரம் பின்னம், த்விதீயா விபக்தி விதாயகம் சூத்திரம் பின்னம். ரதிபுத்தி இது சூத்திரேண த்விதீயா விபக்தி நோச்சதே, இட் டஸ் நாட் மாண்டேட் த்விதீயா விபக்தி, மாண்டேட் கர்மகாரக. கர்மகாரகத்வாத் கர்மணி த்விதீயா இத்யனேன த்விதீயா விபக்தி பவதி. உதாரணம் பஷ்யாமஹ. சத்ரூன் அகமயஸ்வர்கம் வேதார்த்தம் ஸ்வான் அவேதயத் ஆசயச்சாமிருதம் தேவான் வேதம் அத்யாபயத் விதிம் ஆசயத் சலிலே பிருத்வீம் யஸ்மே ஸ்ரீஹரித் கதிஹி இதி சூத்ரே யானி யானி பதானி சந்தி சர்வேஷாம் உதாரணம் அஸ்தி அஸ்மின் ஸ்லோக பாகே. த்ரீ சிக்ஸ் பாதா ஸ்லோக கதம் அன்வயஹ. யஹ ஸ்ரீஹரிஹி யஸ்மே ஸ்ரீஹரிர் கதிஹி, யஹ ஸ்ரீஹரிஹி சத்ரூன் ஸ்வர்கம் அகமயத் ஸ்வான் வேதார்த்தம் അവേദയത് ദേവാൻ അമൃതം ആശയത് വിധിം വേദം അധ്യാപയത് പൃഥ്വീം സലിലേ ആശയത് സഹ മേ ഗതി യഹ ശ്രീഹരി സഹ മേ ഗതി യസ്തമേ ശ്രീഹരി ഗതി വഹ ശ്രീഹരി ഏതത് സർവം കൃതവാൻ സഹ മേ ഗതി മമ ശരണം വാക്യ ശ്ലോകസ്യ അർത്ഥ പശ്യന്തി ചേത് സർവത്ര നിജന്ത പ്രയോഗ അസ്തി ദാറ്റ് ഈസ് വാട്ട് യു ഷുഡ് നോട്ടീസ് കം ടു ദ എക്സാമ്പിൾസ് ഇൻ ഡീറ്റെയിൽ സർവേഷു വാക്യേഷു ശ്രീഹരി പ്രയോജക കർത്ത ശ്രീഹരി കർത്ത യഹ ശ്രീഹരി ഏതത് സർവം കൃതവാൻ ഇതി ഉച്യതെ ശ്രീഹരി ശത്രു സ്വർഗം അഗമയത് ശ്രീഹരി മാൻ വേദാർത്ഥം അവേദയത് ശ്രീഹരി സർവത്ര പ്രയോജക കർത്ത അന്യേ പ്രയോജ്യകർത്താർ സന്തി പശ്യാമഃ പ്രഥമമസ്തി ഗതി സൂത്രേ പ്രഥമം പദം ഭവതി ഗതി പ്രത്യർത്ഥകാഃ ധാതവഃ ഏഷാം ധാതൂനാം അർത്ഥഃ ഗമനം ഗോസ് ധാതു വിഷ്ണി സുഗോ ഗതിഃ നാമ ഗമനം ഗത്യർത്ഥകാനാം ധാതൂനാം പ്രയോഗേ അണികർത്തുഃ പ്രയോജ്യകർത്തുഃ നിഗന്ത പ്രയോഗേ കർമ്മത്വം ഭവതി ശത്രുഃ സ്വർഗം അഗച്ഛന് ഇതി ശുദ്ധധാതോഃ പ്രയോഗഃ ശ്രീഹരിഃ ശത്രൂന് സ്വർഗം അഗമയത് ഹി മേഡ് ദം ഗോ ടു ഹെവൻ ശ്രീഹരിഃ പ്രേരകഃ പ്രയോജകകർത്ത അണികർത്ത അണിഗന്ത പ്രയോഗേ യഃ കർത്ത അർത്ഥാ ശത്രുവഃ തേഷാം നിഗന്ത പ്രയോഗേ കർമ്മത്വം ഭവതി കർമ്മത്വാത് ദ്വിതീയാ വിഭക്തിഃ ശ്രീഹരിഃ പ്രയോജകകർത്ത തസ്യ അഭിഹിതത്വാത് വസ്തുതഃ കർത്തൃത്വാ തൃതീയാ വിഭക്തിഃ പ്രാപ്ത ശ്രീഹരി ശത്രൂന് അണികർത്ത അണികന്ത പ്രയോഗേ ശത്രൂണാം കർത്തൃത്വമസ്തി നൌ കർമ്മ അനേന സൂത്രേണ ഗതിബുദ്ധി പ്രത്യാഘാതാർത്ഥ ശബ്ദകർമ്മകർമ്മകാണാം അണികർത്ത സണൌ ഇതി ഉക്തത്വാ കർമ്മത്വമസ്തി കർമ്മണഃ അനഭിഹിതത്വാ ദ്വിതീയാ വിഭക്തിഃ ശ്രൂയതേ ശ്രീഹരി ശത്രൂന് സ്വർഗം അഗമയത് കമ്പയർ വിത്ത് ദ അവർ സ്റ്റാൻഡേർഡ് നിഗന്ത പ്രയോഗ മാതാ ദേവദത്തേന തണ്ടുലാൻ പാഠയതി പ്രയോജ്യകർത്തുഃ തത്ര തൃതീയാ വിഭക്തിഃ ശ്രൂയതേ അത്ര ദ്വിതീയാ വിഭക്തിഃ ശ്രൂയതേ ദിസ് ഇസ് ഹൗ യു ഡിഫറൻഷിയേറ്റ് തത്ര ദ്വിതീയാ വിഭക്തേഃ കാരണം തസ്യ കർത്തൃത്വം അത്ര ദ്വിതീയാ വിഭക്തേഃ കാരണം തസ്യ കർമ്മത്വം ശ്രീഹരിഃ ശത്രൂന് സ്വർഗം അഗമയത് ഇതി പ്രത്യർത്ഥകധാതോഃ ഏകം ഉദാഹരണം അന്യേ അപി ഈ പ്രത്യർത്ഥകാഃ ധാതവഃ രാമഃ വനം യാതി ഇത്യസ്തി കൈകേയീ രാമം വനം യാപയതി യാതി ഇത്യസ്യ നിജന്തേ യാപയതി ഹി മേക്സ് ഹിം ഗോ ടു ദ ഫോറസ്റ്റ് അതഃ രാമസ്യ കർമ്മത്വം ദ്വിതീയാ വിഭക്തിഃ കൈകേയീ രാമം വനം യാപയതി അഗ്രിമം പദമസ്തി ബുദ്ധി ഗതി ബുദ്ധി ബുദ്ധ്യർത്ഥകാഃ ധാതവഃ ബുദ്ധി നാമ അത്ര അവബോധനം ജ്ഞാനം ഇത്യർത്ഥ ടു നോ ടു അണ്ടർസ്റ്റാൻഡ് ഇസ് ദ മീനിംഗ് ഓഫ് ബുദ്ധി ഹിയർ സ്വേ വേദാർത്ഥം അവിദുഹു സ്വേ ഇസ് വൺസ് ഓൺ പീപ്പിൾ സ്വ ശബ്ദ പ്രശബ്ദസ്യ അർത്ഥ വൺസ് ഓൺ ആത്മീയാഃ ഇത്യർത്ഥ വേദാർത്ഥം അവിദുഹു ദേ അണ്ടർസ്റ്റുഡ് ദ മീനിംഗ് ഓഫ് വേദ േ വേദാർത്ഥം അവിദുഃ ഇതി ശുദ്ധധാതോഃ പ്രയോഗഃ ശ്രീഹരിഃ വാന് വേദാർത്ഥം അവേദയത് ഹി മേഡ് ദം അണ്ടർസ്റ്റാൻഡ് ദ മീനിംഗ് ഓഫ് വേദ അവഗച്ഛതി ഇത്യർത്ഥാപി സ ഏവ അണ്ടർസ്റ്റാൻഡ് ടു നോ ഇത്യർത്ഥയഃ ശ്രീഹരിഃ വാന് വേദാർത്ഥം അവേദയത് ഹി മേഡ് ദം നോ ദ മീനിംഗ് ഓഫ് വേദ ശ്രീഹരിഃ പ്രയോജകകർത്താ സ്വേ പ്രയോജ്യകർത്താരഃ പ്രയോജ്യകർത്തുഃ അനേന സൂത്രേണ കർമ്മത്വം ദ്വിതീയാ വിഭക്തിഃ ഏവം ശിഷ്യഃ വിഷയം അവഗച്ഛതി ദ സ്റ്റുഡന്റ് അണ്ടർസ്റ്റാൻഡ് സം മാറ്റർ ഗുരുഃ ശിഷ്യം വിഷയം അവഗമയതി ഹി മേക്സ് ഹിം അണ്ടർസ്റ്റാൻഡ് ശിഷ്യസ്യ പ്രയോജ്യകർത്തുഃ കർമ്മത്വം അവഗച്ഛതി ഇത്യത്ര ദമധാതോഃ ഗത്യർത്ഥകത്വം നാസ്തി അവഗച്ഛതി ഇസ് നോട്ട് ടു ഗോ ഹിയർ ദ ധാതു ഡസ് നോട്ട് മീൻ ഗമനം உபசர்கேண தாத்வர்த்தோ பலாத் அந்யத்ர நீயதே. உபசர்கஹ சர்வதா தாத்வர்த்தம் பரிவர்த்தயந்தி. அவகமனம் இத்யஸ்ய கத்யர்த்தகத்வம் நாஸ்தி புத்தர்த்தகத்வம் ஏவ. அவகமனம் இஸ் டு அண்டர்ஸ்டாண்ட். தரத்துமேவ இதமுதாஹரணம் தத்தம். யத்யபி கமதாதோஹ கத்யர்த்தகத்வம் அஸ்தி அவ இத்யுபசர்கபூர்வகஸ்ய கமதாதோஹ கத்யர்த்தகத்வம் நாஸ்தி அவகமனார்த்தகத்வம் அர்த்தாத் புத்தர்த்தகத்வம். புத்தர்த்தகத்வாத் அத்ர அணிதர்த்துஹு நௌ கர்மத்வம் பவதி. குருஹு சிஷ்யம் விஷயம் அவகமயதி. பிரத்யவசானார்த்த கதி புத்தி பிரத்யவசானார்த்த இத்யஸ்ய பிரத்யவசானம் நாம பக்ஷணம் இத்யர்த்தம். சவுண்ட் தி ஃபேன்சி வேர்ட் பட் இட் ஜஸ்ட் மீன்ஸ் டு ஈட். பக்ஷணார்த்தகானாம் தாதூனாம் விஷயேபி அணிகர்த்துஹ நௌ கர்மத்வம் பவதி. தேவாஹ அம்ருதம் ஆஷ்ணன் அஷ்நாதி. அஷ் தாதுஹ பக்ஷணார்த்தக. தேவாஹ அமிர்தம் ஆஷ்ணன். தேவா இஸ் அ டிராங்க் நெக்டர். ஸ்ரீஹரி தேவான் அமிர்தம் ஆஷயத். ஹி மேட் தெம் ட்ரிங்க் ஆர் ஹி ஹெல்ப் தெம் ட்ரிங்க். ஸ்ரீஹரி பிரயோஜக கர்த்தா. தேவாஹ பிரயோஜ்ய கர்த்தாரஹ அணிகர்த்துஹ நௌ கர்மத்வம் இத்யாதர்த்தஹ. இந்த அர்த்தன்ஸ் ஆஃப் திஸ் சூத்ர, இஃப் திஸ் சூத்ர வர் இன் தேர், தேவைஹி அமிர்தம் ஆஷயத் இது த்ருதியாதர்த்தி ஸ்யாத். It should have been Tritiya, Hintu, Hakmin Sutre, Pratyo Sanatha Kanam Dhatu Nam, Drahanata, Atra Tritiya Bhakti Bhavati. Evam, Shishuhu Annam Bhukte, the child eats rice. Mata, Shishum Annam Bhojayati, she feeds the child. Shishum Annam Bhojayati, it is where the Tritiya Bhakti Bhavati. சப்தகர்மாணஹ இதி அக்ரிமம் பதம் சூத்ரே. கதி புத்தி பிரத்யவசானார்த்த சப்தகர்ம. சப்தஹ கர்ம ஏஷாம் தே சப்தகர்மாணஹ இதி உச்யதே. கிம் கோர்த்தஹ தஸ்ய இதி சேத் யஸ்ய தாதோஹ கர்ம பதம் சப்தரூபமேவ பவதி. So in a sentence, when the karma pada is in the form of a shabda, udaharanatham shloka asti, saha shlokam pathati. Shloka is nothing but a collection of words. Shabdaha, shabdanam samuha eva shloka. Even though we write it, it is actually a collection of words. Shabdaha eva. There is nothing to a shloka apart from shabda. Evam gadyam, padyam, mantraha, vedaha, all of them just mean shabda. Different forms of words. They are just collections of words. ஏதானி பதானி யத்ர கர்ம பதானி பவந்தி தே சப்த கர்மாணஹ சஹ தாதுஹ ததா சப்த கர்மா இதி உச்யதே. சோ சப்த கர்மணாம் தாதுனாம் பிரயோகே ஹென்ஸ் தாது இஸ் யூஸ்ட். தட் இஸ் வென் த கர்ம பதா ஹப்பன்ஸ் டு பி சப்த ததா அணிகர்த்துஹ நௌ கர்மத்வம் பவதி. இதிஹி வேதம் அதிஹீதே. இதிஹி நாம அத்ர பிரம்மா. பிரம்மா வேதம் அதீதே. வேதா அகெய்ன் இஸ் அ கலெக்ஷன் ஆஃப் சப்தஸ். தேர் இஸ் நதிங் டு த வேதா அபார்ட் ஃப்ரம் சப்தஸ். அதஹ இதானீம் அத்யயனம் சப்த கர்ம பவதி. ஸ்ரீ ஹரிஹ விதிம் வேதம் அத்யாபயதி. ஹி டீச்சஸ் ஹிம் த வேதா. ததா விதிம் இதி விதேஹ கர்மத்வம் தத்ரயத்ன தித்யா பக்தி. சிஷ்யஹ கத்யம் பட்டதே. குருஹ சிஷ்யம் கத்யம் பாடயதி. ஹி டீச்சஸ் த கத்ய. அகர்மகாணாம் உதாரணம் பாடம். பாடம் அபி ததைவ. பாடஸ்ய அபி பாடம் பாடயதி இதி பவதி. This is something else. Pataha di sabda eva. This means shishyam patham pathayati eva. Akarmaka dhatavaha. Este sattva sattva karma na sambhavati. We already saw akarmakaha namake iti kurvam drishtam. यत्र धातोः फलस्य कर्मणः च अयधिकरण्यं भवति सामानाधिकरणं भवति ते अकर्मकाः. कर्मपदं न भवति, देयर इज नो कर्मपद, दिस इज जनरल डेफिनेशन. पृथ्वी फलिने आस्ते, अर्थ लाइज इन वाटर, अर्थ इज इन वाटर. श्रीहरि पृथ्वीम सलिले आसयति, ही मेक्स इट टू बी इन वाटर. आस्त धातुः अकर्मकः, आस्त मीन्स अस्ति इत्यर्थे आस्ते इति ओन्ली. अकर्मकः तस्य प्रयोगे अणिकर्तुः नौ कर्मत्वं भवति, पृथ्वीम सलिले आसयति. वृद्धः उपविशति, इट इज नॉट वृद्धम उपविशति, टाइपिंग मिस्टेक. वृद्धः उपविशति, तरुणः वृद्धम उपवेशयति. अकर्मकानां धातूनां प्रयोगेति अणिकर्तुः नौ कर्मत्वं भवति, तत्प्रयुक्ता द्वितीया विभक्तिः. यदि बुद्धि प्रत्यवसानार्थ शब्दकर्मा कर्मकाणाम् अणिकर्ता क्षणौ कर्म इति अनुवर्तते, कर्म सम्यकः भवति. तर्हि इदानीं पश्यामः गत्यादीनां प्रयोगे निगन्तस्य स्वरूपं कथं भवति, केवलस्य निगन्तस्य कथं स्वरूपम्. कर्तरि प्रयोगे प्रयोजककर्तुः प्रथमा विभक्तिः, प्रयोज्यकर्तुः तृतीया विभक्तिः, कर्मणः द्वितीया विभक्तिः. निगन्तप्रयोगे प्रयोजक क्षम्यताम् कर्मणि प्रयोगे प्रयोजककर्तुः तृतीया, प्रयोज्यकर्तुः अपि तृतीया, कर्मणः प्रथमा विभक्तिः इति स्थितिः. इदानीं किं भवति, गत्यादीनां प्रयोगे गत्यार्थकानां धातूनां प्रयोगे कर्तरि प्रयोगे प्रयोजककर्तुः प्रथमा विभक्तिः तथैव अस्ति, प्रयोज्यकर्तुस्तु कर्मत्वं विहितम् इत्यतः द्वितीया विभक्तिः भवति, कर्मणस्तु द्वितीया विभक्तिः अस्त्येव. बोत् आफ् दीस् विल् बी द्वितीया. गुरुः शिष्यं मन्त्रं पाठयति, पाठं पाठयति एनिथिङ्ग्. गुरुः प्रयोजककर्ता प्रथमा विभक्तिः, शिष्यः प्रयोज्यकर्ता द्वितीया विभक्तिः, कर्म मन्त्रः तस्य द्वितीया विभक्तिः इति कर्तरि प्रयोगे. कर्मणि प्रयोगे निजन्तस्य कर्मणि प्रयोगे प्रत्यर्थकधातुः निजन्तः कर्मणि प्रयोगः, प्रयोजककर्तुः तृतीया विभक्तिः अनभिहितत्वात्. प्रयोज्यकर्ता कर्म अस्ति, कर्म च अभिहितम्, अभिहितकर्मत्वात् प्रथमा विभक्तिः भवति. यत्तु वस्तुतः कर्म आसीत् ओरिजिनल् कर्म, तस्य अनभिहितत्वात् द्वितीया विभक्तिः भवति. गुरुणा शिष्यः मन्त्रं पाठ्यते इति प्रयोगः. दीस् प्रयोगास् आर् एक्चुअलि काम्प्लिकेटेड्, ऐ मीन् नाट् काम्प्लिकेटेड्, वी आर् नाट् यूस्ड् टु इट्. काव्येषु प्रयोगः भवति, किन्तु अस्माभिः तथा अध्ययनं न क्रियते इत्यतः क्लेशः भवति. कर्मणि प्रयोगे एवं भवति इति कौमुद्याम् उदाहरणं न दत्तं, बिकास् दिस् पर्टिक्युलर् सेक्शन् इस् नाट् डीलिङ्ग् वित् कर्तरि अण्ड् कर्मणि प्रयोग. कौमुद्यां नास्ति, तत्र तु कर्मणि प्रयोगस्य विषयः अन्यत्र भवति. सिरि देर् इस् नथिङ्ग् वेरि स्पेशल् अबौट् कर्मणि प्रयोग. कर्मणि प्रयोगे धातुः कथं भवति इति अग्रे उच्यते, किन्तु अदर् थिङ्ग्स् कस्य किं विभक्तिः भवति इति, इट् इस् नथिङ्ग् स्पेशल् इत्युक्ते अस्माभिः कर्मणि प्रयोगः इति निर्दिश्यते, किन्तु वस्तुतः दृश्यते चेत् मया कर्म अभिहितम्, अतः कर्मणः प्रथम, कर्ता अनभिहितः अतः तृतीया, मन्त्रम् इत्यत्र यत् कर्म तदपि अनभिहितम् अतः द्वितीया, तावदेव. इट् इस् जस्ट् जनरल् थिङ्ग् विच् इस् अप्लैड् टु द प्रयोग. तदेव मया दर्श्यते, कौमुद्याम् अयं भागः नास्ति. इदानीं सूत्रस्य दलकृत्यम्. सूत्रार्थः अवगतः, उदाहरणानि अवगतानि, दलकृत्यम् गति इत्यादि किम्. गतिबुद्धि प्रत्यवसानार्थ शब्दकर्मा कर्मकाणाम् इति पञ्चविधाः धातवः अत्र उच्यन्ते सूत्रे. फैव् कैण्ड्स् आफ् धातुस् विच् हव् बीन् मेन्शन्ड् इन् द सूत्र, प्रत्यर्थक, बुद्ध्यर्थक, ప్రత్యవసానార్థక శబ్ద కర్మ అండ్ అకర్మక. కిమర్థం ఏతేషామేవ గ్రహణం, అన్యేషాం ధాతునా విషయే కిం భవతి ఇతి చేత పాసయత్ యోధనం దేవదత్తేన. We go back to our original example, which does not come under any of these. Yatra gatyarthakatvam buddhyarthakatvam ityadinasti tatra kim bhavati devadattena odanam pasayati srutiyaya bhaktihi asti iti suchayati tavadeva. This is what we learnt earlier. We put it in the beginning because it was needed for the understanding. Pachadhatroho gatyadishu anantarbhava. Since it does not come under any of these categories, అణికర్తుహోణౌ కర్మత్వం నభవతి కర్తృత్వమేవ సత్ప్రయుక్త ద్వితీయార్థ పాశయత్యోదనం దేవదత్తేన. అణ్యంతానాం కిం, అణికర్తానౌ కర్మ భవతి ఇతి ఉచ్యతే, కిమర్థం అణికర్త ఇతి ఉచ్యతే ఇతి ప్రశ్నః. ఉదాహరణం దర్శయతి, గమయతి దేవదత్తో యజ్ఞదంతం తమపరస్ప్రయుక్తే గమయతి దేవదత్తేన యజ్ఞదత్తం విష్ణుమిత్రః. యజ్ఞదత్తః గచ్చతి ఇది శుద్ధధాతోః అథవా అణిదంత ప్రయోగః. యజ్ఞదత్తః గచ్చతి యజ్ఞదత్తః దేవదత్తః యజ్ఞదత్తం గమయతి. దేవదత్త మేక్స్ యజ్ఞదత్త టు గో. ఓకే, నిదంతః గత్యర్థకధాతోః ప్రయోగః అస్తి ఇత్యతః అణికర్తానౌ కర్మ భవతి యజ్ఞదత్తం ఇది ద్వితీయా విభక్తిః శ్రూయతే. ఇదానీ పునః నిజం కుర్మః, వి కెన్ మేక్ నిజంత ఆన్ ద నిజంత. విష్ణుమిత్రః దేవదత్తేన యజ్ఞదత్తం గమయతి. విష్ణుమిత్ర మేక్స్ దేవదత్త టు మేక్ యజ్ఞదత్త టు గో. దేర్ ఇస్ అ సిరీస్ ఆఫ్ ప్రేరక, ఇట్ కెన్ ఆల్వేస్ బి డన్. దెన్ ఆర్డర్స్ ఆర్ పాసింగ్ డౌన్ ద ఆర్డర్, సో ఇట్ ఇస్ ఫైనలీ సంబడీ హు డస్ ద వర్క్, బట్ ఆల్ హిస్ వాసెస్ బికమ్ ప్రయోజక దత్త. ఇదానీ ద్వితీయ నిజంత ప్రయోగః అస్తి, విష్ణుమిత్రః దేవదత్తేన యజ్ఞదత్తం గమయతి. ఇదానీ అత్ర దేవదత్తః కర్త. ఇన్ ద సెకండ్ స్టేజ్ దేర్ ఆర్ త్రీ స్టేజెస్. స్టేజ్ వన్ యజ్ఞదత్తః కర్త, తస్య అయం గత్యర్థక ధాతుః, యజ్ఞదత్తః కర్త, అణికర్తుః నౌ కర్మ భవతి. నౌ దేవదత్తః యజ్ఞదత్తం గమయతి ఇత్యస్తి, తస్య ఉపరి యదా నిచ్ క్రియతే తదా దేవదత్తస్య కర్మత్వం భవతి వా నవా ఇతి ప్రశ్నః. విల్ దిస్ దేవదత్త గెట్ కర్మ సమయ విన్ యు డూ అనిగంత ఆన్ హిమ్ ఇది ప్రశ్నః. ప్రయోజ్యకర్త అస్తి యజ్ఞదత్తః, ప్రథమ ప్రయోజకకర్త దేవదత్తః, ద్వితీయ ప్రయోజకకర్త విష్ణుమిత్రః. కిముచ్యతే అణికర్తుః నౌ కర్మ ఇతి ఉక్తత్వాత్ యః మూలే కర్త అర్థాత్ ప్రయోజ్యకర్త తస్యైవ అనేన సూత్రేణ నిదంత ప్రయోగే కర్మత్వం విధీయతే. ప్రథమ ప్రయోజకకర్తుః వెనవర్ సంబడి ఇస్ అ ప్రయోజకకర్త, తస్య ద్వితీయ నిదంత ప్రయోగే కర్మత్వం న భవతి. And there is a series of nidantas. Only the first, the initial prayojyakarta will get karma samya by the sutra. Okay? All other kartas, how many ever kartas they may be, they will remain as kartas. Srutiya vibhakti reva bhavati. Devadattena yajnyadattam gamayati. So devadatta is always karta. He will not be converted to karma. Even though this is a gatyarthaka prayoga, devadatta, the first prayojaka karta, will not get karma samya by the sutra. అతఏవ అణికర్త నౌ కర్మ, అణిదంత ప్రయోగే యః కర్త తస్యైవ కర్మ భవతి కర్మత్వం భవతి ఇతి ఉక్తత్వాత్ యజ్ఞదత్తస్యైవ సర్వత్ర కర్మత్వం దేవదత్తస్య న భవతి. ఇఫ్ యు డు వన్ మోర్ నిజంత ఆన్ దిస్, కశ్చిత్ విష్ణుమిత్రేణ దేవదత్తేన యజ్ఞదత్తం గమయతి కస్యాపి కర్మత్వం న భవతి. ఆల్ అదర్ కర్తస్ విల్ బి రిమైన్ కర్తస్ అండ్ దే విల్ గెట్ తృతీయా విభక్తి, కేవలం ప్రయోజ్యకర్తుః నౌ కర్మత్వం ఇత్యతః ద్వితీయా విభక్తిః భవతి. అత ఏవ అణికర్తుః కిం ఇతి ప్రశ్నస్య స ఏవ ఆశయః. ఇట్ ఇస్ నాట్ దట్ ద ప్రీవియస్ కర్త విల్ గెట్ కర్త విల్ బికమ్ కర్మ హియర్. ఓకే, వెన్ యూ హావ్ అ సిరీస్ ఇట్స్ ఓన్లీ ద ఫస్ట్ కర్త హూ విల్ గెట్ కర్మ సమయ, ఆల్ అదర్స్ విల్ రిమైన్ అస్ కర్త అండ్ విల్ గెట్ ద్వితీయా విభక్తి. ఓకే, ప్రశ్న గురుణా శిష్యం మంత్రః పాఠ్యతే ఇతి అసాధుః. Do not worry too much about Karmani Prayoga, that is why I said here Shishyam Mantraha Paathyate इति न भवति। शिष्यः मन्त्रं पाठ्यते इत्येव। कर्मणि प्रयोगस्य विषये निदन्तानां गत्यर्थकानां प्रयोगे निदन्तस्य प्रयोगे कर्मणि प्रयोगः कथं भवति इति प्रश्नः do not worry too much about it, we'll get lost. I mean, even I get lost sometimes in that because there is a lot of things which govern kim abhihitam, kim anabhihitam, etc. It is a bit confusing. Just for now, understand the kartari prayoga, that is enough. I just mentioned it as an interesting point, that is all. अग्रे सरामः। गतिबुद्धि इति सूत्रस्य विषये बहूनि वार्तिकानि सन्ति। एक्सेप्शन् टु गतिबुद्धि और् आड् आन् टु द धातु टोल्ड् इन् गतिबुद्धि। प्रथमं वार्तिकमस्ति नीवक्ष्योः न गतिबुद्धि प्रत्यवसानार्थ शब्दकर्म कर्मकाणाम् अनिकर्तासनौ नीवह्योः न अणिकर्ता कर्म न भवति। नी वह इति धातुद्वयम्, नी प्रापणे वह प्रापणे इति धातुद्वयम्, एतयोः धातोः प्रयोगे अणि यः कर्ता तस्य णौ कर्मत्वं न भवति। कथम् एतेषां प्राप्तिः, हौ वाज़् इट् प्राप्तिः अन्ते, दे आर् नाट् गत्यर्थकाः, दे आर् नाट् प्योर् गत्यर्थकाः, केवल गत्यर्थकत्वाभावैः इति नयनवहनयोः गतिः अन्तर्भवत्येव। गति इस् एन् इण्टिग्रल् पार्ट् आफ् टेकिङ्ग् नयति इत्यस्य हि टेक्स् इत्यर्थः। तत्र गतिः अन्तर्भवति, इनेविटेबलि इट् इस् इन्क्लूडेड् इन् नयन और् वहन। अतः गत्यर्थकत्वात् एते अपि गत्यर्थकाः इति स्वीक्रियते। गत्यर्थकत्वात् गतिबुद्धि इति सूत्रेण अणिकर्तुः णौ कर्मत्वं प्राप्तम् अनेन निषिध्यते। So, in the absence of this vachika, nayati, vahati, ityetayoh prayoge, karmatvam bhavatisma, kintu anena vachikena nishidhyate. Yada ni dhatoho vahadhatoho va prayoga asti, tada anikartuho nau karmatvam na bhavati. Kartrutvam eva bhavati, tatvayukta tritiyaya bhakti bhavati ityartha. Nayayati vahayati va bharam bhrityena. Bhrityaha bharam nayati. Athava bhrityaha bharam vahati. भृत्यः नाम सेवकः इत्यर्थः। भृत्यः भारं नयति इत्यस्ति, स्वामी भृत्येन भारं नाययति। तृतीयाभक्तिः अस्ति भृत्यस्य, भृत्यं भारं नाययति इति न भवति, भृत्येन भारं नाययति। एवं स्वामी भृत्येन भारं वाहयति। ई धातोः वह धातोश्च प्रयोगे अणिकर्तुः भृत्यस्य णौ कर्मत्वं नास्ति, अतः द्वितीयाभक्तिरपि नास्ति, कर्तृत्वा तृतीया। प्रश्नः पृच्छताम्। आम्, एते गत्यर्थकाः धातवः। सत्यम्। किमर्थं गतेः नियमः न इत्युक्ते कः नियमः? तदेव उच्यते, गति गत्यर्थकत्वात् अणिकर्तुः णौ कर्मत्वं प्राप्तम् अनेन वार्तिकेन निषिध्यते, नीवक्ष्योः न इति वार्तिककारेण विशेषतया उच्यते। नी धातोः वह धातोश्च प्रयोगे अणिकर्तुः णौ कर्मत्वं न भवति, अत एव कर्मत्वं नास्ति। तदर्थमेव इदं वार्तिकम्, नीवक्ष्योः प्रयोगे अणिकर्तुः णौ कर्मत्वं न भवेत् इत्येतदर्थं वार्तिकम्। ස්වනේන වාර්තිකේන උක්තස්වාද නොභවති. If this vartika were not there, තදා තු භවති ස්ම. It would have been bhrityam bharam nayeti, kintu na bhavati. Yantrikartrikasya, itatyarthakatrepi na bhavati, iteva arthaha vartikasya. Yantrikartrikasya vahehe anishedhaha. This is a vartika which is related to the previous vartika. ఆదౌ కిమాసీత మహధాతుః అస్తి తస్యార్థకత్వాత్ ప్రతిబుద్ధి ఇతి సూత్రేణ ప్రణికర్తుః నౌ కర్మత్వం ప్రాప్తం. ఈవహ్యోః న ఇతి ఉక్తత్వాత్ మహధాతోః ప్రయోగే కర్మత్వం న భవతి ఇతి ఉక్తం. ఇదానీం పునః విశేషతయా ఉచ్యతే నియంతృకర్తృకస్య వహేహే. అనిషేధః అణికర్తుః నౌ కర్మత్వస్య నిషేధః న భవతి. యదా నియంతా కర్తా భవతి, వహుధాతోః ప్రయోగే యదా నియంతా కర్తా భవతి తదా అనిషేధః. అణికర్తుః నౌ కర్మత్వస్య యః నిషేధః ఉక్తః నియమయోః న ఇతి ఉక్తః సః నిషేధః న భవతి. సః నియంతా, నియంతా ప్రాజితా యంతా సూతః క్షత్తా చ సారథిః ఇత్యమరః. నియంతా ఇత్యస్య సారథిః ఇత్యర్థః. అసలు వార్తికస్య కోర్థమైతి చేత ఎత్ర వహుధాతోః నిగంత ప్రయోగే సారథేః కర్తృత్వం భవతి. సారథిః యది కర్తా, తత్ర అణికర్తుః నౌ కర్మత్వ నిషేధః న భవతి. ద ప్రీవియస్ వార్తిక నియోహ్యోర్న ఇతి వార్తికేన వహుధాతోః ప్రయోగే కర్మత్వం నిషిద్ధం, యది సారథిః కర్తా తదా నిషేధః న భవతి. కిం భవతి? అణికర్తుః నౌ కర్మత్వం భవతి ఇత్యర్థః. వాహయతి రథం వాహాన్ సూతః ఇతి ఉదాహరణం. వాహాః రథం వహంతి, వాహాః నామ అశ్వాః. ద హార్సెస్ క్యారీ ద క్యారేజ్ అండ్ డ్రా ద క్యారేజ్. సూతః వాహాన్ రథం వాహయతి, సూతః నామ సారథిః రథం వాహయతి. హి మేక్స్ దెమ్ టేక్ ద క్యారేజ్. అత్ర ఒరిజినలీ వాహయతి ఇత్యస్య ప్రయోగే గత్యర్థకత్వాత్ అణికర్తుః నౌ కర్మత్వం ప్రాప్తం. నీవహ్యోర్న ఇతి ఉక్తత్వాత్ కర్మత్వం నిషిద్ధం. ఇదానీం నియంత్రకర్తృకస్య వహేః అనిషేధః ఇతి ఉక్తత్వాత్ నిషేధః నాస్తి కర్మత్వం భవతి. తేన అత్ర ద్వితీయా విభక్తిః శ్రూయతే. ఫైనలీ వి ఆర్ గెటింగ్ ద్వితీయా విభక్తి దెన్ సారథి ఇస్ ద కర్త. సో ద ఫైనల్ థింగ్ ఇస్ వహధాతోః ప్రయోగే యది సారథి కర్త తదా ద్వితీయా విభక్తిః భవతి ప్రయోజ్యకర్తుః. ఏది అన్యే కర్తారః తదా న భవతి. ఏవ సూతః అథవా సారథిః వాహాన్ అశ్వాన్ రథం వాహయతి ఇత్యత్ర ద్వితీయా భవతి. స్వామీ భృత్యేన భారం వాహయతి ఇత్యత్ర ద్వితీయా విభక్తిః న భవతి. వహు ధాతోః కః అర్థః ఇతి అస్య సూత్రం అస్తి. అహం అభ్యాసవారం వహామి ఇత్యత్రాపి స ఏవ అర్థః. అతః తత్రాపి किं कर्मत्व निषेधः भवति. भारं वहति इत्यस्य तेव अभ्यासस्य भारं वहामि इत्युक्तेऽपि अयं नियमः भवत्येव. दिस् इस् क्लियर् अबौट् नी वह अण्ड् वह स्पेशल् केस् वेर् सारथि विल् बि द कर्ता. అగ్రే గచ్చామః. ఆదిఖాద్యోర్న వార్తికస్యేన లిఖితః. వార్తికకారః వాక్యకారం వరరుచిం భాష్యకారం పతంజలిం. వాక్యకారః అథవా వార్తికకారః వరరుచిః. దేర్ ఆర్ మెనీ అదర్ వార్తికకారస్ యాక్చువల్లీ, బట్ ద వన్ హూ ఇస్ మోస్ట్ ఫేమస్ ఈ నోన్ అండ్ ద వన్ హూ ఇస్ మేజర్లీ కామెంటేటెడ్ బై ద భాష్యకార ఇస్ వరరుచి ఆర్ కాత్యాయన. అన్యేపి సంతి వస్తుతః ఇదానీం జ్ఞాతుం న శక్యతే కాని వార్తికాని కేన లిఖితాని ఇతి. కింతు అస్మాభిః వార్తికకారత్వేన వరరుచిః అథవా కాత్యాయనః ఏవ స్వీక్రియతే. సో కాత్యాయనేన యాని వార్తికాని ఉక్తాని తాని సూత్ర సదృశాని. ద వార్తికాస్ ఆఫ్ కాత్యాయన ఆర్ యాస్ ప్రమాణార్హ యాస్ ద సూత్రస్ దెమ్సెల్స్. భాష్యకారేణ పునః తేషాం చర్చా కృతా. సో దోజ్ వార్తికర్స్ ఇస్ ద భాష్యకార హస్ అక్సెప్టెడ్ సర్వాణి వార్తికాని నశితాని భాష్యకారేణ నిరాక్రియంతే. హి సేస్ సమ్ వార్తికర్స్ ఆర్ నాట్ నెససరీ. ద వార్తికకార హింసెల్ఫ్ సేస్ సమ్ వార్తికర్స్ ఆర్ నాట్ నెససరీ. యామి తు స్థితాని దోజ్ వార్తికర్స్ విచ్ ఆర్ ఫైనలీ అక్సెప్టెడ్ బై ద భాష్యకార దే ఆర్ యాజ్ గుడ్ యాజ్ అ సూత్ర. సూత్రస్య యావత్ ప్రామాణ్యం తావదేవ వార్తికకారస్యాపి అస్తి. వస్తు అధికం ప్రామాణ్యం వార్తికారోత్తరం మునీనాం ప్రామాణ్యం. ఎక్కడ సూత్రకారస్య వార్తికారస్య మతభేద ఇది దృశ్యతే తే వార్తికార మతస్య ప్రామాణ్యం. సో ఆల్ దీస్ వార్తికల్స్ విచ్ ఆర్ గివెన్ ఆర్ యాజ్ గుడ్ అస్ సూత్ర. సూత్ర సదృశాన్యేవ దే ఆర్ టు బి టేకన్ అస్ ప్రమాణ అండ్ దే విల్ బి యూజ్ ఫర్ ప్రయోగ నిష్పాదనార్థం ఉపయోగ్యంత. గతిబుద్ధి ఇత్యాదినా అణికర్తుః కర్మత్వం న భవతి. ప్రయోగే అణికర్తుః నౌ కర్మత్వం నభవతి. ఆదయతి ఖాదయతి వాన్నం వటునా ఇత్యస్తి. వటుః అన్నం అస్తి అతః ఖాదతి. ఉభయోః సమానార్థకత్వం. గురుః వటునా అన్నం ఆదయతి ఖాదయతి. రిమెంబర్ ద ఎగ్జాంపుల్ ది శిశుః అన్నం భుక్తే ఇతి యది అస్తి. భుజ్ ధాతోః ఇది ప్రయోగః. తదా మాతా శిశుః అన్నం భోజయతి. శిశోః అణికర్తుః నౌ కర్మత్వం భవతి ద్వితీయార్థభక్తిః. శిశు అన్నం ఖాదతి మాతా శిశునా అన్నం ఖాదయతి. శిశుము అన్నం ఖాదయతి శిశునా అన్నం ఆదయతి. వతునా అన్నం ఆదయతి. కర్మత్వ నిషేధే కర్తృత్వ తృతీయ. పునః అపరం వార్తికం అహింసార్థకస్య భక్ష్యధాతోః ప్రయోగే అణికర్తుః నౌ కర్మత్వం న భవతి. ఉదాహరణార్థం భక్షయత్యన్నం వటునా ఇత్యస్తి. వటుః అన్నం భక్షయతి. పునః భక్ష్యధాతుః ప్రత్యవసానార్థకః. ప్రత్యవసానార్థే గతిబుద్ధి ఇత్యాదినా కర్మత్వం ప్రాప్తం. కర్మత్వం అనేన నిషిద్ధతే. వటుః అన్నం భక్షయతి. గురుః వటునా అన్నం భక్షయతి. సత్యం అత్రైవ భోజయతి ఇత్యస్తి చేత వటుః అన్నం భుక్తే వటు అన్నం భోజయతి ఇది భవతి. కింటు యది అదుధాతుః ఖాద్ ధాతుః అథవా అహింసార్థకః భక్ష్యధాతుః అస్తి తర్హి కర్మత్వం న భవతి
పూర్ణకయ. అహింసార్థకస్య భక్ష్యధాతోః ఇతి కోర్థః ఇతి ప్రశ్నః. భక్ష్యేః అహింసార్థస్య ఇత్యుచ్యతే. నలీవర్గాన్ సస్యం భక్ష్యయతి ఇతి ఉదాహరణం దదాతి. క్షేత్రే సస్యం భక్ష్యయతి ఇతి ప్రయోగః. సస్యం ఇత్యనేన అత్ర ක්ෂේත්‍රේ ප්‍රරෝහම් අනුනම් සස්‍යම් ඉහ විවක්ෂිතම් ඒක ව්‍යාඛ්‍යාකාරයෙන් උත්තරේ. So the question here indicates that plant which is still growing in the field, it has not been cut down. Okay? It means it is still living. Plants are living with your amshaha, the hatsmaka mati asti. So from the age of the vasutasara, we know that the plants have life. Eva vashyati. Sasya tadanim, arthata yara kshetre sasyani rohanti, tada antahprajya jivatvat, asbhaksharam hinsaiva. When the buffaloes are eating plants which are growing, still growing, that bhakshanam hinsa. Ataya purvata annam bhojayati. Anna is not living now at least. The rice was already, it was being cut. Maybe it originally had some jiva, but not now. Ataha tatra hinsa ataha. Yadasa jivantam. Samati bhakshayati. Tada kim bhavati bhakshayati ahimkarthasyana iti kratva thimkarthasya bhakshanasya tatyam bhakshayati athava mamsam bhakshayati or meenam anything which is held is being eaten. Yada himsa bhavati tada karmatva nishetaha nasti anikartuhu nau karmatvam bhavati balivardaha tatyam bhakshayanti iti shiddhadhatuhu prayogaha. Gopalaha balivardhan sasyam bhakshayati. Bhakshadhatuhu, it's a tenth gana, sauradikaha. So you will not be able to see the difference in nijanta and shuddhadhatu. Both ways it will be bhakshayati. So jnayate. I am peranarthakava. Dasagani, dasamagani anam dhatu na. Vikaranaha eva ai nishbhavati. So. Gopalaha balivardhan sasyam bhakshayati. Atra karmatvam anikartuhu nau karmatvam asti dhityaya bhaktisho bhavati. Yadatu asimkarthakaha bhakshadhatuhu. Vatuhu annam bhakshayati. Vatuna annam bhakshayati. Iti karmatva nishedhaha dhityaya bhaktisho bhavati. One of question. Balivardhana nama vishabhaha. Ox. Ashut sarva anyesham, anything which is not specifically mentioned there, anikartuhu nau karmatvam bhavati. So ashnati, devan amratam asayat harihi. So ashudhatuhu prayoge anikartuhu nau karmatvam bhavati. Kevalam adudhatuhu prayoge na bhavati, khadudhatuhu prayoge na bhavati, bhakshadhatuhu prayoge yadi hinsa na gamyate tada na bhavati. किम खादामि कहा था प्रश्न से को था नावला कहा आशय है किम शब्द से प्रयोग है कथम होती है सर्वम हिंसा philosophical questions. Vayam cha shabda pramanakaha. So we just go for shabda. So, iranin yadirvartikam achitam, nivasyorna, adikhadyorna, bhakshera hinsatsakyana, sarveti nishedhatsakaha. Yaha gati buddhi sudrena yatra praptam, karmatvam praptam, tasya nishedhaha uktaha. इदानीं वाक्यकारः कविश्चन धातून् वदति यत्र गतिबुद्धिसूत्रेण प्राप्तिः नास्ति किन्तु तत्रापि कर्मत्वं भवति इति उच्यते. What he did so far was, there were some dhatus which could have got karmatva from gatibuddhi, he prevented them. He gave negation to prevent them from getting karmatva. इदानीं तु केशान्तन धातूना न भवति गतिबुद्धि इति सूत्रेण प्राप्तिः नास्ति. They do not belong to any of the five. प्राप्तिः नास्ति किन्तु तेषां विषये अनिकर्तुः नौ कर्मत्वं भवति. So he adds on to the list given by the Suprakara. सूत्रकारेण प्रत्यर्थकाः बुद्ध्यर्थकाः प्रत्यवसानार्थकाः शब्दकर्माणः अकर्मकाः इति पञ्चविधाः धातवः उक्ताः. तैः सह एतेषामपि धातूनां විෂයෙ අනිකත්තු නෝ කර්මත්වම් භවති इति වදති වාක්‍යකාරහ ජල්පති ප්‍රභතීනම් අසංඛ්‍යානම් ජල්පානීනම් ධාතුනම් ප්‍රයෝගේ අනිකර්තා නෝ කර්ම භවති इति විශේෂතහ වදති රත්නාදිෂ අනන්තර්භාවාත කර්මත්වේ අප්‍රාප්තේ since these dhatus do not belong to any of the five gati buddhi etc they are not reduced ataha karmatve aprapte they would not have got karmatva anena vartikena vidhiyate the svartika tell he will get karmatva jalpati prabhutayah itte ke iti prashnaha jalpati etc itte ke bhashyakarena jalpati vilapati bhashyate iti trayah dhatavah uktah උදාහරණමස්ති ජල්පයති භාෂයති වා ධර්මම් පුත්‍රම් దేవదత్తః इति උදාහරණම් පුත්‍රः ධර්මම් ජල්පති අසමා භාෂතේ සිත්‍ත්‍ය ධර්ම ජල්පති इत्यस्य අර්ථඥානම් විනා කථනම් इत्यर्थः he is talking about dharma but he does not really know what he is speaking एवं ධර්මම් භාෂතේ he speaks about dharma దేవదత్తః පුත්‍රම් ධර්මම් ජල්පයති පුත්‍රේණ इति अर्थः I mean he makes his son speak of it so एते जल्पतिय तमा भाषते इति कुत्रापि न अन्तर्भवति they do not come under any of the categories अतः रतिबुद्धि इत्यादिना अप्राप्ते अनेन वाक्तिकेन विधीयते because this vaktika specially says जल्पति प्रभृतीनाम् उपसंख्यानम् उपसंख्यानम् means addition you have to consider them also so एतेषामपि प्रयोगे अनिकर्तानौ कर्म भवति देवदत्तः पुत्रं धर्मं जल्पयति अथवा भाषयति दृशेश्च इति अव्ययं वार्तिकम् इदमपि तथैव दृशधातोः प्रयोगे अनिकर्तानौ कर्म भवति अगेन् दृशधातु इस् नाट् इन्क्लूडेड् इन् एनी आफ् द फैव् इस् नाट् गत्यर्थकः नाट् बुद्ध्यर्थकः not pratyakanarthaka, not shabdakarma, not akarmaka. Ataha, gatibuddhi iti sutrena na bhavati, anena vartikena, drishadhato prayoge, anikarta nau karma bhavati. Iti utsate. Darshayati harim bhaktan. Utsati. Bhaktaha harim pashyanti. Guruho bhaktan harim darshayati. Anikarta namo bhaktaha, esham bhaktana nau karmatvam bhavati. भक्तान् हरिं दर्शयति इति प्रयोगः सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं न तु तद्विशेषार्थानाम् इति अनेन ज्ञाप्यते सूत्रे बुद्ध्यर्थकाः इत्यस्ति बुद्धिः नाम ज्ञानम् इति उक्तम् दर्शन ऐ मीन् सीन् इस् आल्सो कैण्ड् आफ् ज्ञान दर्शनं श्रवणम् All those are different, specialized types of jnana. Jnanati ityasiva pashyati, drishva jnanati, darshan rupena jnanati ityarthaha. So they are all jnana vishesha, not jnana samanya. Jnana samanya is where you just say jnanam, jnanati avagacchati ityadirishya. Kintu darshanam, shravanam, jighranam ityadasti tadapi jnanameva jnana visheshaha. Sutre tasya grahanam. ज्ञान सामान्यानां ग्रहणं वा ज्ञान विशेषाणाम् अपि ग्रहणम् अस्ति वा इति प्रश्ने अनेन वार्तिकेन ज्ञायते सूत्रे ज्ञान सामान्यार्थानामेव ग्रहणम् दिस् वार्तिका टेल्स् दट् इन् द सूत्र ओन्ली द जनरल् धातु विच् मीन् अण्डर्स्टाण्डिङ्ग् आर् नोयिङ्ग् आर् यूस् वै बिकास् इफ् द सूत्र सूत्रे यदि बुद्धिपदेन सर्वेषां ज्ञान सामान्यार्थानां ज्ञान विशेषार्थानां च ग्रहणं स्यात् तर्हि इदं वार्तिकं नावश्यकम् दिस् वार्तिका इस् नाट् रिक्वैर्ड् सूत्रे एव बुद्धिपदेनैव सर्वेषां यदि ग्रहणं भवति तर्हि अस्य वार्तिकस्य आवश्यकता नास्ति दिस् वार्तिका वुड् नाट् बि रिक्वैर्ड् वार्तिकं कृतम् इत्यनेनैव ज्ञायते सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं न तु तद्विशेषार्थानाम् तेन स्मरति दिग्घत्यादीनां न सो देर् आर् अदर् धातुस् विच् इण्डिकेट् स्पेशलैस्ड् टैप् आफ् ज्ञान Just like you have pashyati, you have smarati, vijnati, remembers or smells. All these are different kinds of jnana, specialized kinds of jnana. Tesham prayoge anikartuhu karmatvam na bhavati. Kevalam jnanati, vetti, අවගච්ඡති බුද්ධති ඉත්‍යාදීනම් ප්‍රයෝගේ ඒව අනිකර්තෝ නෝ කර්මස්සම් දෘෂ්‍යධාතෝ ප්‍රයෝගේ අනේන වාර්තිකේන අනිකර්තෝ නෝ කර්මස්සම් අනේෂාම් ධාතුනාම් යෝගේ නභවති ස්මාරයති ඝාපයති වා දේවදත්තේන දේවදත්තහ ස්මරති අතවා දිග්ඝති ස්මරති රිමෙම්බර් දිග්ඝති හෙස්මෙල් යඥදත්තහ දේවදත්තේන ස්මාරයති අතවා ඝාපයති සොවෙන්දී සාතු දරියු අනිකර්තෝ නෝ කර්මස්සම් නභවති කර්තෘත්වමේව තේන තෘතිය විභක්තිහි ශබ්දායතේ ර්ණ ඉති එදේමම් වාර්තිකම් ශබ්දායතේ ඉති ධාතුව අස්ති ශබ්දම් කරෝති ඉත්‍යර්ථ නාම ධාතු සර්ටන් ධාතු ඩිරයිස් ෆ්‍රම් ප්‍රාතිපදිකාස් උදාහරණාර්ථම් ශබ්දම් කරෝති ඉත්‍යර්ථ ශබ්දායතේ ශබ්දායතේ ශබ්දායන්තේ ඉති ධාතවස් සන්ති දේ ආර් ඕල් කෝල්ඩ් නාම ධාතු කේචන ප්‍රත්‍යයාහ සන්ති තේෂාම් ප්‍රත්‍යයානාම් යෝගේන ප්‍රාතිපරිකම් ධාතුත්වේන පරිවර්ත්‍යතේ ප්‍රාතිපරික කැන්ඩි කන්වර්ටර් සෝර් ධාතු නාම ධාතු හේලානි ශබ්දාය ඉති නාම ධාතුව අස්ති සංවන්ත ධාතුව ඉති උච්චතේ සං ඉති ප්‍රත්‍යහ අස්ති අස්ති ධාතෝ අනිකර්තාණෝ කර්ම න භවති සබ්ජෙක්ට් වෙන ශබ්දායතේ ඉස් යූ අනිකර්තුහු නෝ කර්මත්වං නාස්ති ඉති උච්චතේ නාස්ති ඉති උච්චතේ කතම් ප්‍රාප්තිහි හවු ඩිඩ් ගෙට් ඉස් ද ෆස්ට් ක්වෙස්චන් කතම් ප්‍රාප්තිහි ප්‍රාප්තිහි ඥායතේ චේදේව නිෂේධහ කතම් ප්‍රාප්තිහි ඉති චේත ධාත්වත්ව සංගෘහීත කර්මත්වේන අකර්මකත්වා අයම් අකර්මකහ ධාතුහ යද්වති ශබ්දම් කරෝති ඉති වාක්‍යේ ශබ්දස්ය කර්මත්වම් අස්ති ශබ්ද ඉද කර්ම ශබ්දම් කරෝති ඉත්‍යත්ර කර්මපදම් අස්ති තථාපි ශබ්දාය ඉති යදා ධාතුහ භවති කර්මපදා has been included in the ධාතු itself ධාත්වත්ව සංගෘහීත කර්මත්වේන කර්මපදම් is ශබ්ද It has been included in the dhatu itself. Shabdaya iti dhatu eva karmapadam sangrihitam. So there is no independent karma which is possible here. Shabdaya te ityasya yadyapi shabdam karoti ityeva arthaha. Shabdasya eva karmatam. Tathati dhatu naiva karma sangrihitam. Karma has been included in the dhatu ityataha. Shabdaya iti dhatu ko akarmakaha. So the dhatu becomes akarmaka. There is no separate karma other than what has been included in the dhatu. Akarmakatvata gatibhakshit pratyavasanartha shabda karma akarmakanam anikartasanam ichyanena anikartuhunam karmatvam praptam anena vartikena nishidhyate. Shabdayatirna iti uktatvata nam karmatvam na bhavati shabdayayati devadattena. Devadatta shabdayate. దేవదత్తః శబ్దం కరోతి ఇత్యర్థః హి మేక్స్ నాయిస్ ఎగ్జ ఆర్ నాట్ నెసెసరీ నాయిస్ హి షౌట్స్ ఆర్ హి కాల్స్ అవుట్ ఇత్యతే అర్థః యజ్ఞదత్తః దేవదత్తేన శబ్దాయేతి హి మేక్స్ హిమ్ టెల్ సంథింగ్ ఆర్ స్పీక్ సో అత్ర అనికర్తుః నౌ కర్మత్వం నాస్తి నౌ కర్తృత్వమేవ ఇదానీం ప్రశ్నః అకర్మకాః నామకే సూత్రే అకర్మకాః ఇతి ఉచ్యతే What exactly is it meant by akarmaka? It is prashnaha. Yesham deshatanadi dhinnam karma na sambhavati te atra akarmakaha. So in this sutra, akarmaka means yesham deshatanadi dhinnam karma na sambhavati. Those for whom there is no karma pada, it is possible. Karma pada meva bhavitum narhati. Except desha and kala. If you remember, gatakakshayam vartika matitam, అకర్మక ధాతుభ్యోగే దేశ కాల భావో గంతవ్యోధ్వా కర్మ సంజ్ఞాం లభతే దేశ కాల ఎక్సెట్రా విల్ గెట్ కర్మ సంజ్ఞా ఈవెన్ వెన్ యూఆర్ యూజింగ్ అకర్మక అకథిగ్రంథ సూత్ర అతీతం బట్ దట్ ఈస్ నాట్ ద ఒరిజినల్ కర్మ తద్భిన్నం కర్మ న సంభవతి వస్తుత కర్మపదం కర్మ ఎస్ నవతి ఏ అకర్మకా నసు అవివక్షిత కర్మాణ అది అవివక్షిత కర్మాణ ఇది భవంతి వెన్ యూ డు నాట్ mean to indicate the karma. For example, saha kim karoti ityukte pathati ityukte. He reads. Kim pathati ityukte vivakshanasthi. There is no mention of what he did. Kevalam pathati. Kevalam kriyayaha eva vivaksha. Natu karmanaha. Ayam avivakshita karma. Saha pathati is just a tatra karma padam na vivakshitam. Since there is no karma pada in the vakya, will it be called an akarmaka? Can it be treated as an akarmaka is the question. Kadachit bhavati. In some cases, avivakshita karmanam api grahanam bhavati. Okay. Kintu, atra avivakshita karmanam grahanam nasti, esam karma padam na sambhavati. Those which actually do not or cannot have a karma pada, esam eva atra akarmaka padena grahanam. Tena, masa masa yati devadattam ityadav karmatvam bhavati, devadattena pasayati ityadav tu na. He gives two examples, contradictory ones. Devadattaha masam aste. So this is an example. Masam aste iti udaharanam gatakashyayam drishtam. Asudhatuhu akarmakaha. Akarmakadhatu dharyoge kalavachakasya padasya karmatvam bhavati. So the masa has got karmatva masam aste. Yajyadattaha devadattam masam asayati. So kimasya atra. అకర్మక ధాతుర్యోగే దేశకాలో భావో గంతవ్యోద్భాస కర్మ సమయం భవతి ఇది వాక్తికేన మాస శబ్దస్య కర్మత్వం అస్తి. ఇట్ ఇస్ ద కర్మ. అయం అకర్మక వా సకర్మకో వా? సిన్స్ దేర్ ఇస్ ద కర్మ పద, డు యు ట్రీట్ ఇట్ యాజ్ అకర్మక ఆర్ సకర్మక? ఇట్స్ అ డౌట్. ఇట్ ఇస్ పాసిబుల్. తదా కిముచ్యతే ఏషాం దేశకాలాది భిన్నం కర్మ న సంభవతి. దోస్ విచ్ డు నాట్ హావ్ అ కర్మ అదర్ దాన్ దేశ అండ్ కాల, they are akarmakas. Those are to be treated as akarmakas. Atra asudhatoho desham kalam cha vihaya anyat karma na sambhavati. It cannot have a karma pada other than these. Desha kala etc. Ataha ayam vastutaha akarmakaha. So this is actually akarmaka. Even though you are hearing the karma pada, matam iti karma padam yadyapi shruyate, tathate ayam dhatuho akarmaka eva. Akarmakasya akarmakanam prayoge అనికర్తాణౌ కర్మ భవతి. సో యు హియర్ ద ద్వితీయ యజ్ఞదత్తః దేవదత్తం మాసం ఆశయతి. దేవదత్తం ఇతి ద్వితీయ శ్రూయతే. సో ఈవెన్ దో యు ఆర్ హియరింగ్ ద కర్మ పద, ఆ ధాత ఇస్ యాక్చువల్లీ అకర్మక. బికాజ్ ఇట్ కెన్ హ్యావ్ కర్మ పద ఓన్లీ అస్ దేశ ఆర్ కాల, తద్భిన్నం కర్మ న సంభవతి. అతః సః అకర్మకః అణికర్తుః ణౌ కర్మత్వం భవతి. పచిధాతోః ప్రయోగే దేవదత్తః పచతి ఇత్యస్తి. కిం పచతి ఇత్యస్య వివక్షా నాస్తి. దేర్ ఇస్ నో, ద స్పీకర్ డస్ నాట్ ఇంటెండ్ టు టెల్ వాట్ హి కుక్. దేవదత్తః పచతి ఇత్యేవ. స్వామీ దేవదత్తేన పాచయతి. నౌ అత్ర కర్మణః వివక్షా నాస్తి. అయం అకర్మకః వా ఇతి చేత న అకర్మకః. సో ఈవెన్ దో కర్మ ఇస్ నాట్ మెన్షన్ హియర్, అయం వస్తుతః సకర్మకః, కర్మ పదం భవితుం అర్హతి. యద్యపి వివక్షా నాస్తి తథాపి దేర్ ఈస్ అ పాసిబిలిటీ ఆఫ్ అ కర్మ పద. ఇట్ క్యాన్ హావ్ అ కర్మ పద. ఓకే. అతః అయం న అకర్మకః అణికర్తుః ణౌ కర్మత్వం న భవతి. ఓకే. సో సిన్స్ దిస్ ఇస్ నాట్ కర్మ పద, అణికర్త విల్ నాట్ బి కన్వర్టెడ్ టు కర్మ, దేవదత్తేన పాపయతి ఇత్యేవ భవతి. టు కాంట్రాడిక్టరీ ఎగ్జాంపుల్స్. మాసమాస్తే ఇత్యతః కర్మ పదం శ్రూయతే తథాపి సః అకర్మకః. దేవదత్తేన పాచయతి ఇత్యత్ర కర్మపదం న శ్రూయతే తథాప్యయం సకర్మకః. దట్ ఒరిజినల్ గోయింగ్ డిసైడ్ ఇస్ విల్ ఇట్ హావ్, ఇస్ ఇట్ పాసిబుల్ ఫర్ ఇట్ టు హావ్ అ కర్మ ఆర్ నాట్. యది కర్మపదం సంభవతి సః సకర్మకః, యది న సంభవతి తర్హి అకర్మకః ఇతి నిశ్చయః. ఓకే. ఇదానీం ప్రశ్నాః సంతి. నిరంతర ప్రయోగే यत्र प्रयोज्यकर्ता कर्म समयं प्राप्नोति प्रधान गौण कर्म इति विचारः भवति वा? सो द वर्ड प्रधान कर्म एंड गौण कर्म आर एक्चुअली यूजुअली रेफर्ड विद रिस्पेक्ट टू द्विकर्मकास्. यत्र अन्येषां कारकाणां अविवक्षतः भवति तत्रैव तेषां प्रयोगः. द वर्ड द टेक्निकल टर्म ऑफ प्रधान कर्म एंड गौण कर्म आर यूज्ड देयर. किंतु अत्रापि यदा कर्मद्वयं भवति तदा सिमिलर चर्चा विल हैपन. విచ్ కర్మ షడ్యత్ ద్వితీయ, విచ్ కర్మ అభిహిత అనభిహిత అది చర్చా భవతి. కింద ప్రధాన కర్మ గౌణ కర్మ ఇది వ్యవహార నాస్తి ఇది చింతయామి. ఐ ఆమ్ ఆల్సో నాట్ వెరీ ష్యూర్ I'll just refer it to and refer it and clarify. But as far as I know, Akshya Vishaye Pradhana Karma, Gauna Karma iti Sabda Prayoga Nasti. No technical terms are not used in this case as far as I know. Into Drashtavya. So I think that is it about Rati Buddhi. Okay. So Rati Buddhi Pratyavasanartha Sabda Karma Karma Kanam Anikarta Sanau. It is a sutra. Sena Saha Vartikani. We have finished the whole sutra. Srikrodanyatarasyam iti Abhimam Sutram. Kartaritsatamam Karma Ityataha Karma iti Anuvartate. Evam Ratibuddhi iti Sutrena Anikarta Sanau Ityate Anuvartate. Saya Vishayaha Arthat Anau Yaha Karta Sahanau Karma Samyagaha Bhavati. Annatarasyam Annatarasyam Ityasya Va Ityataha Vikalpena Karma Samyagaha Bhavati. Tada Srikroho Srikro iti Dve Dhatu. एतयोः धातोः प्रयोगे अणिकर्ताणौ विकल्पेन कर्मसंयोगः भवति इति सूत्रार्थः. सक्रोः अणौ यः कर्ता सः णौ वा कर्मसंयोगः स्यात्. उदाहरणमस्ति हारयति कारयति वा भृत्यं भृत्येन वा कटम् इति. भृत्यः कटं करोति अथवा भृत्यः कटं हरति इति शुद्धधातोः प्रयोगः. स्वामी भृत्यं कटं कारयति अथवा स्वामी भृत्यं कटं हारयति इति कर्तुः कर्मत्वे अणिकर्ता भृत्यः तस्य कर्मत्वे सति भृत्यं कटं कारयति भृत्यं कटं हारयति इति द्वितीया विभक्तिः श्रूयते. किन्तु वा विकल्पेनैव कर्मत्वं भवति इति उक्तत्वात् कर्मसंज्ञायाः अभावे तस्य कर्तृत्वे सति तृतीया विभक्तिरपि भवति भृत्येन कटं कारयति भृत्येन कटं हारयति. अतः उभयत्र प्रयोगद्वयमस्ति. कृ धातोः प्रयोगे भृत्यं कटं कारयति इति एकं वाक्यं भृत्येन कटं कारयति इति द्वितीयम् उभयमपि साधु. एवमेव हृ धातोः प्रयोगे भृत्यं कटं हारयति भृत्येन कटं हारयति इति उभयं साधु इति हस्त्रोरन्यतरस्याम् इति सूत्रस्य उदाहरणम्. अग्रे वार्तिकमस्ति अभिवादिदृशोः आत्मनेपदे रेति वाक्यम्. द फोर्थ स्लाइड इन माय प्रेजेंटेशन ऑन द पीडीएफ. अभिवादिदृशोः आत्मनेपदे वा इति वाक्यम् इति वार्तिकम्. यथा हेत्वोन्नतरस्याम् इति सूत्रे विकल्पेन कर्मत्वं विधीयते एवमेव अनेन वार्तिकेनापि विकल्पेन कर्मत्वं विधीयते. कदा विकल्पेन भवति? अभिवादिदृशोः आत्मनेपदे वा इति वार्तिकम्. अभिपूर्वता च वद् धातोः अभि इति उपसर्गः वद् धातोः वदति इति. तस्य धातोः प्रयोगे एवं दृश्य धातोश्च प्रयोगे आत्मनेपदे अणिकर्तुः णौ कर्मसंज्ञाविकल्पेन भवति. एतत्तु ज्ञातव्यं सर्वेऽपि निजन्ताः उभयपदिनः भवन्ति. आल् निजन्ता हेपन् टु बि उभयपदी. ऑलमोस्ट ऑल आई से मोस्ट ऑफ देम आर उभयपदी. तत्र यदा अर्थात पाठयति पाठयते इति भयं भवति कारयति कारयते इति सर्वत्र भवति. तत्र यदा एतयोः धातोः आत्मनेपदे प्रयोगः अर्थात अभिवादयते एवं दर्शयते इति आत्मनेपदे प्रयोगः तदा अणिकर्तुः णौ कर्मसंज्ञा विकल्पेन भवति इति वार्तिकस्य अर्थः. आत्मने प्रयोगे एव अस्य वार्तिकस्य प्रवृत्तिः. किमुदाहरणम्? अभिवादयते दर्शयते देवं भक्तं भक्तेन वा. भक्तः देवम् अभिवदति अथवा पश्यति इत्यस्ति. तत्तौ शुद्धधातोः प्रयोगः. गुरुः भक्तं देवं अभिवादयते अथवा भक्तं देवं दर्शयते इति कर्मत्वे. वेन् द अणिकर्ता गेट् कर्मत्व द्वितीयाविभक्ति इस् हेड्. यदा तु कर्मत्वं नास्ति विकल्पेन इति उक्तत्वात् कर्मत्वस्य अभावे තෘතියා භක්ති හිෂ්‍යයතේ ගුරුහු භක්තේන දේවම් අභිවාදයතේ භක්තේන දේවම් දක්ෂයතේ. අත්නේ පදේ ඒව අස්සිත් කරති හිටි උක්තම් තහි පරස්නය පදේ කිම් රූපම් භවති ඉති ප්‍රශ්න. දෘෂිභාතෝ ප්‍රයෝගේ නිත්‍යං අනිකර්තුහ කර්මත්වම් භවති දෘෂේෂ්ඨ ඉති වාර්තිකම් අතීතම් ඉහ. Remember, දෘෂේෂ්ඨ ඉති වාර්තිකේන දෘෂිභාතෝ ප්‍රයෝගේ අනිකර්තාණෝ නිත්‍යං කර්ම භවති ඉති పూర్වත්‍ර උක්තම්. අර්ථාත් පරස්නය පදේ නිත්‍යං කර්මත්වම් භවති ගුරුහු භක්තම් දේවම් දර්ශයති. අතවා භක්තාන් හරිම් දර්ශයති ඉති හෙස්තන ප්‍රයෝගහ. අත්වලේ පද ප්‍රයෝගේසු විකල්පේන කර්මත්වම් සත්වේස්ථාන් දිටියාය භක්තිෂ්ට සවති. අභි පූර්වකාත පූර්වකස්ය අවධාතෝ ප්‍රයෝගේසු පරස්මය පදේ කර්මත්වම් නාස්ති. අභිවදති අථවා අභිවාදයති ඉත්‍යේතත් යතිබුද්ධි ඉත්‍යාදිෂ නාන්තර්භවති. තස්මාත් ප්‍රශ්නයේ පද ප්‍රයෝගයේ අස්ස විෂයේ කර්මත්වම් නාස්ති කේවලම් තෘතියා විභක්තේ ප්‍රයෝගහ. ගුරුහ භක්තේන දේවම් අභිවාදයති. යදාතු අත්ථනේ පදම් භවති තර්හි උපයෝහ විකල්පහ. රිබ්බෝට් කේසස්. ඍෂිභාතෝහ විෂයේ ප්‍රශ්නයේ පදේ නිත්‍යම් කර්මත්වම් භවති. අභි పూర్වකස්ය වදධාතෝහ විෂයේ ප්‍රශ්නයේ පදේ නිත්‍යම් කර්තෘත්වමේව භවති. කර්මත්වම් න භවත්‍යේව. ఉభయోః అత్తనే పద ప్రయోగే విదల్పేన కర్మత్వం తత తదభావే కర్తృత్వం ఇది విషయః. అత్ర తస్య సూత్రస్య విషయ సమాప్తః. గతి బుద్ధి తథా తత్వ నిరతస్యం వెంటే నిరంత ప్రకరణ ఎన్సియ. ఇదానీం కర్మ సమయం పశ్యామశ్చేత్ అత్రిచ్ఛుతం కర్మ తథాయుక్తం చ అనిశ్చితం ఇది వస్తుతః కర్మ సమయాయాః డెఫినేషన్ భవతి. ఇక్కడ లక్షణం కర్మ కర్మణః లక్షణం భవతి కర్తరిచ్ఛతమం కర్మ తథా తథాయుక్తం చ అనిశ్చితం ఇది. అగధితం చ ఇత్యనేన వికర్మ తథాసూనాం విషయే అన్యోహీకారకైః అవివక్షితం కారకం కర్మ సమయం భవతి ఇది జ్ఞాతం. తతః సూత్రద్వయేన గతిబుద్ధి ప్రత్యవసానార్థ శబ్దకర్మ కర్మకారణ మణికస్థాసనం తత్వమీవరస్యాం ఇది సూత్రద్వయేన నిఘంత విషయే కథం ప్రయోగ ఇది జ్ఞాత. ఏనాక్షర సమాం నాయం ఇది గమ్యమహేశ్వరాత్ ప్రశ్నం వ్యాకరణం ప్రోక్తం తస్మై పాణిని ఏ నమః. భాష్యకారం వరవసిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మ్యమనిత్రయం మునిత్రయం నమస్కృత్య తదుక్తీశ్వరి భావ్యక యజ్ఞాకరణ సిద్ధాంత కౌముదీయం విరచ్యతే.